ಗುಂ ಹವಾಮಹೇ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಃ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೆ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಚರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾದೇ ರುದ್ರ ಶಿವಾ ತನೂರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾಗಿರಿಶಂತಾಭಿಜಾಗಶಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇಭಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿ ಪ್ರದಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಜದಧಿ ಭಕ್ತಾ ಪ್ರಥಮೋ ದೇವ್ಯೋ ಭಿಷಕ್ ಅಹೀಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಚ್ಚಯಾತು ಧಾನ್ಯಃ ಅಸಂಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರುಃ ಸುಮಂಗಳಃ ಯೇ ಚೇವಾಗುಂ ರುದ್ರಾ ಅಭಿತೋ ದಿಕ್ಷು ಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳಯೇಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಧುಷೇ ಅಧೋಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇಭ್ಯೋ ಗರನ್ನಮಃ ಪ್ರಮುಂಚದನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ಮಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ದೇಹಸ್ಥ ಇಷವಃ ಪರಾದಾ ಭಗವೋ ಬಪಾ ಅವತದ್ಯಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷುಧೇ ನಿಶೀರ್ಯಶಲ್ಯಾಮುಖಾ ಶಿವೋನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನು ಕಬರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂಹುತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಶಂ ಗತಿಃ ಯಾದೇಹೇತಿರ್ಮೀ ದುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೇ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಗೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋಯ ಇಷುಧಿಸ್ತವಾರೇಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशान् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनाम् पतये नमो नमः। सस्पिञ्जराय द्विषीमते पथीनाम् पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानाम् पतये नमो नमो। हरिकेशायोपवीपिने पुष्टानाम् पतये नमो नमो। भवस्य हेत्यै जगताम् पतये नमो नमो। रुद्राया तताविने क्षेत्राणाम् पतये नमो नमः। सूताया हन्त्याय वनानाम् पतये नमो नमो। रोहिताय सपतये वृक्षाणाम् पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो। भुवन्तये वारिव कृतायौषधीनाम् पतये नमो नम। उच्चैर्घोषाय क्रन्दयते पत्तीना पतये नमो नमः। कृत्स्नवेताय धावते सत्त्वनाम् पतये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः। खगुभाय निषङ्गिणे सेनानाम् पतये नमो नमो। निषङ्गिन इषुधिमते तस्कराणाम् पतये नमो नमो। वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो। निचेरवे परिचराय रण्यानाम् पतये नमो नमः। श्रिकाविभ्यो जिगागुंसद्भ्योमश्नताम् पतये नमो नमो। शिवद्भ्यो नक्तम् शरद्भ्यः प्रकृन्तानाम् पतये नमो नम। उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम। इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो। नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम। आसीनेभ्य शयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम। तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम। सभाभ्यः सभापतिभ्यश्च वो नमो नमो। अश्वेभ्योऽश्वपतिभ्यश्च वो नमः। नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम। उगणाभ्यस्त्रिगुंहदेभ्यश्च वो नमो नमो। गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो। व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रथिभ्यो रथेभ्यश्च वो नमो नमो। रथेभ्यो रथपतिभ्यश्च वो नमो नमः। सेनाभ्यः सेनानिभ्यश्च वो नमो नमः। శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః సక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమగిషుగృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమః స్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ చితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మేధుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వైశీయసే చ నమో వృద్ధాయ చ సంవృధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమ ఆశదే చాజిరాయ చ నమ శీఘ్రియాయ చ శేభ్యాయ చ నమ ఓర్మ్యాయ చ వస్వన్యాయ చ నమ త్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్టాయ చ నమ పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధియాయ చ నమ సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమ ఉర్వర్యాయ చ కళ్యాయ చ నమ శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమ శ్రవాయ చ ప్రతిశ్రవాయ చ నమ ఆశుషేనాయ చాశురథాయ చ నమ చూరాయ చ వవిందతే చ నమో వర్మిణే చ వరుధినే చ నమో బిల్మినే చ కవచినే చ నమ శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమ శీర్ణే శవే చాయుధినే చ నమ స్వాయుధాయ చ సుదన్వనే చ నమ శ్రుత్యాయ చ పత్యాయ చ నమ కాట్యాయ చ నీప్యాయ చ నమ సూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమ కూప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమ ఈద్రియాయ చ ప్యాయ చ నమో వాద్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చారుణాయ చ నమః శంఘాయ చ పశుపతయే చ నమ ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే జహనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః तीर्थ्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय जालाद्याय च नमः षष्प्याय च फेन्याय च नमः सिगत्याय च प्रवाह्याय च नमः गिरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काज्ञाय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्प्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्व्याय च सोर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो अगुरमाणाय चाभिघ्नते च नमः आघ्नते च प्रघ्नते च नमो भक्तिरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्मत्केभ्यो नमः आनिर्हतेभ्यो नम आमी वत्केभ्यः द्रापे अन्धसर्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाममत् यादे रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजेतया नो मृळजीवसे इमागुं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रबरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुराय चे पिता तदश्यामतव रुद्रप्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षम् तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते आयान्ते गोघ्नमुत पूरुषग्ने क्षयद्वीराय सुम्नवस्मेते अस्तु रक्षाजनो अभिज देव ब्रोह्यराजन शर्म यच्चद्विवरुहाः सुहिश्रुतम् गर्तसदम् युवानम् मृगण्ण भीममुपहत्नुमुग्रम् मृळाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते गृणक्तु परित्वेषस्य दुर्मतिरघायाः अवस्थिरामगवद्यस्तनुष्वमीद्वस्तोकायतनयाय मृळया मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्रिम् वसा नमाचर पिनाकम् विभ्रदागहे विगिरित विलोकित नमस्ते अस्तु भगवः यास्ते सहस्रगुण्येतयोऽन्यमस्मन्निव पन्तु ताः సహస్రాణి సహస్రధా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతే సహస్రాణి సహస్రశోయే రుద్ర అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే అస్మిన్ మహత్యర్ణవే ఏందరిక్షే భవా అధి నీరగ్రీవాశితి కంఠా శర్వా అధః క్షమాచరా నీలగ్రీవాశితి కంఠాదివగుం రుద్ర ఉపశ్రితా ఏ వృక్షేషు సస్పింజరా నీలగ్రీవా విలోగితా ఏ భూతానామధిపతయో విశికాత కవర్దినః ఏ అన్యేషు వివిధ్యంతి పాత్రేషు పిబతో జనాన ఏ పథాం పరిరక్షయ ఐలభృదాయవ్యుదః ఏ తీర్థాని ప్రచరంతి శృగావంతో నిషంగినః య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంద్రిక్షే దివియే శామన్నం వాతో వర్షమిషభస్తేభ్యో దశ ప్రాచేర్దశ దక్షిణా దశ ప్రతిచేర్దశోదిచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయం ధృతేయం గ్రీష్మో యశ్చ నో ద్వేష్టితం భోజం భేద దధామి త్ర్యంబకం యజామహే సుగంధ్యం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వ భువన వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మర్త్యాయ హంతవే తాన్ యజ్ఞస్య మాయయా సర్వాణ వయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్యేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టు హి యస్విషు సుధన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేసౌ మనసాయ రుద్రం నమో భిర్దేవమసురం దువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభేషజోయగుం శివాభిమర్షణః ఓం శాంతి శాంతి శాంతిః చంజ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌ మనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసూశ్చ మే క్షీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సూషా చ మే సుధినం చ మే ఓ Shanti, Shanti, Shanti. Om Bhadram Karne Vishrunuja Padeva. Bhadram Pashye Maksha Virya Jatra. Sthirai Rangai Estushtuvagum Sastano Bhehi. Vyashem Devahi Tanyadayu. Swastina Indro Vriddhashrava. Swastina Pusha Vishvaveda. Swastina Staksho Arishtanemihi. Swastino Bruhaspatir Dadhatu. Om Shanti Shanti Shanti. Prajapatyo Vagesho Agnihi. Prajapatya Praja. Prajavan Bhavati. Ya evam Veda. Pashukamaschinvita. Sangyanam va etat pashunam. Yadapa pashunam eva sangyane kinchinute. Pashuman bhavate. Ya evam veda. Vrishtikamaschinvita. Aho vai vrishtihi. Pajanyo varshuko bhavate. Ya evam veda. Amaya vichinvita. Apo vai besajam. Besajam evasmai karoti. Sarvamayureti. Avicharagraschinvita. Vajrova apaha. Vajrameva bhatrabhmevya praharati srunuta enam tejaskamo yashaskamaha brahma varchasa kama svarga kama chinvita eta madhvavasti yavadetat yavadevasti tadavarunde tasmetat vratam varshati nadavet amrutam va apaha amrutasyanantarithye napsumutra purishangurhyat narishthet navivasanasnayat guhyova esho agnihi etasyagniranatidahaya na puskara parnani hiranyam vadhitishtet etasyagnena vyarohaya na kurmasyasniyat no nakasyathatu kanyena monakani bhavante agatuka apaha ya etamagnen chinute ya uchainam evam veda imanukam bhuvanasisa dema indrascha vishvecha deva yajnyancha nastvanvancha prajancha adityerindra sahasisa dhatu adityerindra sagano marudbhihi asmakam bhutva pita tanuna aplavasva praplavasva andi bhavajama muhu sukhadin dukkha nidhanam pratimunjasvasvam puram marijayasvayam bhuvah ye shariranyakalpayan Tete deham kalpayanto machate khyatmati rishate uttishtadama swapta agnimichadvambharata राज्ञत्सोमस्य तृप्ता सह सूर्येण सयुजोषसः युवासुवासाः अष्टाचक्रानवद्वारा नेवानाम् पुरयोज्या तस्यागुम् हिरण्मयः कोशः स्वर्गो लोको ज्योतिषावृतः यो वेताम् ब्रह्मणो वेद अमृतेनावृताम् पुरी तस्मै ब्रह्म च ब्रह्मा च आयुःकीर्तिम् प्रजाम् ददुः विभ्राजमानागुम् हरिणी यशसा सम् परिवृता पुरगुम् हिरण्मयीम् ब्रह्मा विवेशा पराजिता पराङ्गेत्यज्यामये पराङ्गेत्यनाशके इह चामुत्र चान्वेते विद्वान् देवासुरानुभयान् यत्कुमारे मन्द्रयते यद्योषित्यत्पतिव्रता हरिष्ठम् यत्किञ्च क्रियते अग्निस्तदनुवेधते अश्रिता सश्रिताश्च यज्वानो योऽप्ययज्वनः स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निम् च ये विदुः सिकता इव संयन्ति रश्मिभिः समुदीरिताः अस्माल्लोकादमुष्मा ऋषिभिरतात् वृष्णिभिः अपेतवेतवि च सत्पथातः ये त्रस्तपुराणा ये च नूतना अहोभिरद्भिरक्तुभिर्व्यक्तम् यमो दधात्त्वपसा नमस्मै नमृणन्तु नृपात्वर्यः अकृष्टा ये च कृष्टजा कुमारेषु करेणेषु जारिणीषु च गेहिता रेतः पीता आण्डपीता अङ्गारेषु च गेहुतः उभयान् पुत्रपौत्रगान् युवेहम् यमराजगान् शतमिन्नु शरदः भद्रम् कर्णेभिः शृणुयामदेवा भद्रम् पश्येमाक्षविर्यजत्रा स्थिरैरङ्गैस्तवागुंसस्तनोभिः व्यसेम देवयितम् यदायु स्वस्ति न इन्द्रो भद्रस्रवाः स्वस्ति नः पोष विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनोभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि
त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि
त्वमेव केवलम् हर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ऋतम् वच्मि सत्यम् वच्मि अवत्वम् वाम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाद्धरात्तात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् त्वत्तो जायते सर्वम् जगदिदम् त्वत्तस्तिष्ठति सर्वम् जगदिदम् त्वयि लयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वाक्पदानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनोऽध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्मभूर्भुवस्सुवरो गणादीम् पूर्वमुच्चार्य वर्णादीम् सदनन्तरम् अनुस्वारपरतरः अर्धेन्दुलसितम् कालेन रुद्धम् एतत्तव मनुस्वरूपम् गकारपूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादस्कन्धानम् स्वगुंहिता सन्देः सैषा गणेश विद्या गणकऋषिः निचृद्गायत्री छन्दः गणपतिर्देवता ॐ गणगणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशधारिणम् रथम् सवरथम् हस्तैर्विभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पै सुपूजितम् भक्तानुकम्पितम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृते पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगे योगिनाम्बरः नमो व्रातपदये नमो गणपतये नम प्रमथपदये नमस्ते अस्तु लम्बोधरा एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदथर्वशीर्षम् योधीते स ब्रह्म भूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायवदे जानो दिवसकृतं पापं नाशयते प्रातरधे जानो रात्रिकृतं पापं नाशयते सायं प्रातः प्रयुञ्जानो पापो पापो भवति सर्वत्राधेयानोपविघ्नो भवति धर्वार्थकाममोक्षं च विन्दति इदमथर्वशीर्षमशिष्यायन देयम् यो यदि मोहाद्दास्यति स पापेजान् भवति सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मे भवति चतुर्थामनश्शञ्जपति स विद्यावान्भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यानभिभेदि कदाचनेति यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति यो लाजैर्यजति स वक्षोवान्भवति स मेधावान्भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यस्ताज्य सविद्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् सम्यग्राहयित्वा सूर्यवर्चस्वे भवति सूर्यग्रहे महानद्याम् प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेद इत्युपनिषत् भद्रम् कर्णेभिःशृणुयामदेवाः भद्रम् पश्ये भाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्टुवागुंशस्तनोभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ विष्णोर्नुकम् वीर्याणि प्रवोचय्य पार्थिवानि निममे रजागुंसि यो अस्कभायदुत्तरगुम् सधस्तम् विचक्रमाणस्त्रेधोरुगायः विष्णोरराटमसि विष्णो पृष्टमसि विष्णो श्रप्त्रे सो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपातो अस्या नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णोत्पदे परमे मध्व उत्सह प्रतद्विष्णुस्तवदे वीर्याय भृगोण भीमकुचरो गिरिष्टा यस्यो ऋषुत्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परोमात्रया तनुपावृधाना न ते महित्वमन्वश्नुवन्ति उभे ते विद्मरजति पृथिव्या विष्णो देवत्वम् परमस्य वित्से द्विचक्रमे पृथिवीमेष एता क्षेत्राय विष्णुर्मनुषेदशस्यन्न ध्रुवासो अस्य कीरयोजना सह उरुक्षितिगुंसुचनिमा चकार त्रिद्येव पृथिवीमेष एताम् विचक्रमे शतर्च संवहित्वा प्रविष्णुरस्तु तवसस्तवीया त्वेषगुस्यस्य स्थविरस्य नाम अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेदानि दधे पदम् समूढमस्य पागुंसुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदा आभ्यः ततो धर्माणि धारयन्न विष्णो कर्माणि पश्यत यतो व्रतानि पश्पशे इन्द्रस्य युज्यः सखा तद्विष्णो परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरा ततम् तद्विप्रासो विपन्यवो जाग्रवागुंसः समिन्धते विष्णो यत् परमम् पदम् पर्याप्त्या अनन्तरायाय सर्वस्तोमोतिरात्र उत्तममहर्भवति सर्वस्याप्ते सर्वस्य चित्त्यै सर्वमेव तेना आप्नोति सर्वम् जयते स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।